गणपतिगुं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणा ब्रह्मणस्पत आनश्रण्वन् नोतिभिः सेदसादनम् प्रणो देवी सरस्वती वाजेभिर्वाजिनीवती धीनाम वित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतो दैषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुदते नमः यात इष शिवतमा शिवम् बभूवते धनुः शिवाशरव्यायातवतया नो रुद्रमृणया याते रुद्र शिवातनोरघोर पापकाशिनी त्रयानस्तनुवाशन्तमया गिरिशन्ताभिचाकृषेः यामिषम् गिरिशन्तहस्ते विपश्यस्तमे शिवाम् गिरित्रताम् कुरु माहि गुंसे पुरुषम् जगत् शिवेन वचसा त्वा गिरिशाच्चा वदामसि यथा नः सर्वमिज्जगद यक्ष्मगुं सुमना असत् अन्ध्यवोचदधिवक्ता प्रथमो दैव्योऽपिशक् अहेकश्च सर्वान्यं भयन् सर्वाश्च यातु धान्यः असौ यस्ताम्रौ अरुण उदमभ्रस्वमङ्गलः ये ते माकुम् रुद्रा अभितो दिक्ष श्रुता सहस्रशो वैशागुम् हेण ईमहे अतव्यो वसर्पदिनीलग्रीवो विलोहितः उदैनम् गोपा अदृशन्नदृशन्नदहार्यः उदैनम् विश्वा भूतानि सदृष्टो मृणयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीनुषे अथो ये अस्य सत्त्वानोऽहम् तेभ्योऽकरन् नमः प्रमुञ्च धन्वनस्त्वमुभयोरात्मीयोच्य याश्च देहस्त इषवः पराता भगवो वप अवतत्यधनुस्त्वगुम् सहस्राक्षशतेषु ते निशीर्यशल्यानाम् मुखा शिवो नः सुमदाभव हिर्यम् धनु कपर्दिनोऽभिशल्यो पाणवागुम् उत अनेशन्यस्येशव आभुदस्य निषङ्गतिः याते हेतिर्मीनुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुज नमस्ते अस्त्वायुधायानाथताय कृष्णवे हवाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान् मृणक् विश्वतः अथो य इषु निस्तवारे अस्मन्निधेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्रयम्बकाय त्रिपुरान्तकाय సాత్వికాగ్నికాలాయ కాలాగ్నిరుద్రాయ నీలకంఠాయ మృత్యుంజయాయ సర్వేశ్వరాయ సదాశివాయ శ్రీమన్మహాదేవాయ నమః. నమో హిరణ్యవాహవే శ్రేణాన్యే దిశాం చ పతయే నమో నమో భక్ష్యేభ్యో హరికేశేభ్యః పశూనాం పతయే నమో నమః సస్పింజరాయ ద్విషీమతే పథీనాం పతయే నమో నమో భవృషాయ వ్యగ్రాధినేంద్రానాం పతయే నమో నమో హరికేశాయోపవీతిని పుష్టానాం పతయే నమో నమో భవస్య హేత్యై జగతాం పతయే నమో నమో రుద్రాయ తథా వినిక్షేత్రాణాం పతయే నమో నమః సూతాయ హంత్యాయ వనానాం పతయే నమో నమో రోహితాయ స్థవతయే వృక్షాణాం పతయే నమో నమో మంత్రిణే వాణిజాయ కక్షాణాం పతయే నమో నమో భువంతయే వారివస్కృతాయ ఔషధీనాం పతయే నమో నమ ఉచ్చైర్ఘోషాయ క్రందయతే పత్తీనాం పతయే నమో నమ కృత్స్నవీతాయ ధావతే సత్వనాం పతయే నమః. నమస్సహమానాయ నివ్యాధిన ఆవ్యాధినీనాం పతయే నమో నమః. కకుభాయ నిషంగిణే సేనానాం పతయే నమో నమో నిషంగిణ ఇషుధిమతి తస్కరాణాం పతయే నమో నమో పంచతే పరివంచతే సాయూనాం పతయే నమో నమో నిచేదవే పరిచరాయారణ్యానాం పతయే నమో నమస్రకావిభ్యో జిగాకుంద్రభ్యో ముష్ణతాం పతయే నమో నమో శివభ్యో నక్కంచరద్భ్యః ప్రకృంతానాం పతయే నమో నమ ఉష్ణేశినే గిరిచరాయ కులుంచానాం పతయే నమో నమ ఇషుమద్భ్యో ధన్వావిభ్యశ్చ వో నమో నమ ఆతన్వానేభ్యః ప్రతిదధానేభ్యశ్చ వో నమో నమ ఆయశ్చద్భ్యో విసృతభ్యశ్చ వో నమో నమోస్యభ్యో విద్యభ్యశ్చ వో నమో నమ ఆసీనేభ్యశ్చయానేభ్యశ్చ వో నమో నమ స్వపన్యోజాగ్రభ్యశ్చ వో నమో నమస్తిష్టభ్యో ధావద్భ్యశ్చ వో నమో నమ సభాభ్యః సభాపతిభ్యశ్చ వో నమో నమో అశ్వేభ్యో అశ్వపతిభ్యశ్చ వో నమః. నమావ్యాధినేభ్యో వివిధ్యంతేభ్యశ్చ వో నమో నమ ఉగణాభ్యస్తృగంహతేభ్యశ్చ వో నమో నమో వృత్సేభ్యో వృత్సవదిభ్యశ్చ వో నమో నమో భ్రాతేభ్యో భ్రాతవదిభ్యశ్చ వో నమో నమో గణేభ్యో గణపతిభ్యశ్చ వో నమో నమో విరూపేభ్యో విశ్వరూపేభ్యశ్చ వో నమో నమో మహద్భ్యః శుల్లకేభ్యశ్చ వో నమో నమో రథిభ్యో రథేభ్యశ్చ వో నమో నమో రథేభ్యో రథపతిభ్యశ్చ వో నమో నమ సేనాభ్యసేనానిభ్యశ్చ వో నమో నమః. శత్రుభ్యః సంగ్రహీతృభ్యశ్చ వో నమో నమస్తక్ష్యభ్యో రథకారేభ్యశ్చ వో నమో నమ కులాలేభ్య కర్మారేభ్యశ్చ వో నమో నమ పుంజిష్టేభ్యో నిషాదేభ్యశ్చ వో నమో నమ ఇషుకృభ్యో ధన్వకృభ్యశ్చ వో నమో నమో గయుభ్యశ్వనిభ్యశ్చ ఓ నమో నమశ్వభ్యశ్వవనిభ్యశ్చ ఓ నమః నమో భవాయ చ రుద్రాయ చ నమః శర్వాయ చ పశుపతయే చ నమో నీలగ్రీవాయ చ శితికంఠాయ చ నమః కవర్ధినే చ యుక్తకేశాయ చ నమః సహస్రాక్షాయ చ శతధన్వరే చ నమో గిరిశాయ చ శిపిమిష్ఠాయ చ నమో మేరుష్టమాయ చేసుమతే చ నమో హ్రస్వాయ చ వామనాయ చ నమో బృహతే చ వక్షేయసే చ నమో హృద్ధాయ చ సంహృధ్వనే చ నమో అగ్ర్యాయ చ ప్రథమాయ చ నమః ఆశవే చాధిరాయ చ నమః శేఖ్రియాయ చ శేభ్యాయ చ నమః ఓమ్యాయ చావస్వన్యాయ చ నమః స్రోతస్యాయ చ నేభ్యాయ చ నమో జ్యేష్ఠాయ చ కనిష్ఠాయ చ నమః ఔర్వజాయ చాపరజాయ చ నమో మధ్యమాయ చాపగల్భాయ చ నమో జగన్యాయ చ బుద్ధ్రియాయ చ నమః సోభ్యాయ చ ప్రతిసర్యాయ చ నమో యామ్యాయ చ క్షేమ్యాయ చ నమః ఉర్వర్యాయ చ కల్యాయ చ నమః శ్లోక్యాయ చ అవసాన్యాయ చ నమో వన్యాయ చ కక్ష్యాయ చ నమః శ్రవాయ చ ప్రదిశ్రవాయ చ నమః ఆశుషేణాయ చాశురథాయ చ నమః శూరాయ చ భిన్నతే చ నమో భర్మినే చ వరోచినే చ నమో భిల్మినే చ కవచినే చ నమః శ్రుతాయ చ శ్రుతసేనాయ చ నమో రుందుభ్యాయ చ హనన్యాయ చ నమో తృష్ణవే చ ప్రముషాయ చ నమో దూతాయ చ ప్రహితాయ చ నమో నిషంగినే చేసుమతే చ నమస్తేక్ష్ణేశవే చాయుధినే చ నమస్వాయుధాయ చ సుధన్వనే చ నమః శ్రుత్యాయ చ పథ్యాయ చ నమః కాట్యాయ చ నీప్యాయ చ నమః స్తోత్యాయ చ సరస్యాయ చ నమో నాత్యాయ చ వైషంతాయ చ నమః కోప్యాయ చ వట్యాయ చ నమో వశ్యాయ చ వశ్యాయ చ నమో మేఘ్యాయ చ విద్యుత్యాయ చ నమః ఏత్రియాయ చ తప్యాయ చ నమో వాత్యాయ చ రేష్మియాయ చ నమో వాస్తవ్యాయ చ వాస్తవాయ చ ఓం హర 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 ఓం నమః సోమాయ చ రుద్రాయ చ నమః తామ్రాయ చ అరుణాయ చ నమః శంగాయ చ పశుపతయే చ నమ ఉగ్రాయ చ భీమాయ చ నమో అగ్రే వధాయ చ దూరే వధాయ చ నమో హంత్రే చ హనీయసే చ నమో వృక్షేభ్యో హరికేశేభ్యో నమస్తారాయ నమః శంభవే చ మయోభవే చ నమః శంకరాయ చ మయస్కరాయ చ నమః శివాయ చ శివతరాయ చ నమస్తేర్త్యాయ చ కోల్యాయ చ నమః వార్యాయ చ వార్యాయ చ నమః ప్రతరణాయ చోత్తరణాయ చ నమః ఆధార్యాయ చ లాఘ్యాయ చ నమః శశ్వ్యాయ చ ఫేన్యాయ చ నమః సికత్యాయ చ ప్రవాహ్యాయ చ నమ ఇరిన్యాయ చ ప్రవత్యాయ చ నమః ఇగుంశిలాయ చ క్షయనాయ చ నమః కవర్ధినే చ ములస్తయే చ నమో గోష్ట్యాయ చ గృహ్యాయ చ నమస్తల్ప్యాయ చ గేహ్యాయ చ నమః కాట్యాయ చ గహ్వరేష్ఠాయ చ నమో हृदयाय च निवेश्याय च नमः पानुं सव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय च लप्याय च नमः ूर्व्याय च सूर्म्याय च नमः पर्ण्याय च वर्णशत्याय च नमो भगुरमाणाय च विघ्नते च नमः आखिदते च प्रखिदते च नमो भक्किरिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षेरकेभ्यो नमो विचिन्वत्केभ्यो नम आनिर्हते भ्यो नम आमीवत्केभ्यः द्रापे अन्धसस्पते दरिद्रं नीललोहिता येषाम् पुरुषाणामेषाम् पशूनाम् मा भेर्मा रोमो येषाम् किञ्च नाममत् या ते रुद्रशिवा तनो शिवा विश्वाः वेषदे शिवा रुद्रस्य वेषदे तया नो मृणजीवसे इमागुम् रुद्राय तवसे कमस्ते क्षयत्वेराय प्रभरामहे मतिम् यहानश्यवसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृणानो रुद्रोतनो मयस्कृति क्षयत्वेराय नमसा विधेमते यच्चञ्चयोश्च मनुराय चे पिता तदश्यामतव रुद्र प्रणीतौ मानो महान्तमुतमानो अर्भकम् मान उक्षन्तमुतमान उक्षितम् मानो वदे पितरम् मोत मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोकेतन ये मान आयुषि मानो दोषु मानो अश्वेषुरीरिषः वीरान्मानो रुद्रमामितो बधिर्हविष्मन्तो नमसा विधेमते आराते गोग्न उत पूरुषग्रे क्षयद्वीराय सुम् नमस्मेते अस्तु रक्षा च नो अधि च देव प्रोह्यता च न शर्म यच्च द्विवर्णाः सुमिश्रुतम् गत्ततम् युवानम् मृगन्न भीममुपहत्नमुग्रम् मृणाचरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निवमन्तु सेनाः परिणो रुद्रस्य हेतृणक्तु परिवेशस्य दुर्मतिरघायोः अवस्ति रामगवध्यस्तनुष्वमीढ्वस्तोकायतनयाय मृणया मीढुष्टम शिवतम शिवो नः सुमनाभव परमे वृक्ष आयुधम् निधाय कृत्तिम् वसान आचरपि नागम् विप्रदागहि विकिरिद विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयोऽन्यमस्मन्निवपन्तु ताः सहस्राणि सहस्रधा बाहुवोत्सव हेतयः कासामीशानो भगवः पराचीनामुखाकृते सहस्राणि सहस्रशो ये रुद्राधिभूम्याः तेषागुम् सहस्रयोजने वधन्वामि तन्मते अस्मिन्महत्यर्णवेन्दरिक्षे भवा अधि नीलग्रीवा श्रुतिकण्ठा शर्वा अनः क्षमाचराः नीलग्रीवाश्रितिकण्ठा दिवगुम् रुद्रा उपश्रिताः ते वृक्षेषु तस्मिञ्जना नीलग्रीवाभिलोहिताः ये भूतानामधिपतयोऽभिशिखास कमर्दिनः ये अन्येषु विविध्यन्ति पात्रेषु विमतो जनान् हे पथाम् पतिरक्षय ऐलभृदाय व्युदः ये तीर्थानि प्रचरन्ति श्रुकावन्तो निषङ्गिणः य एतावन्तश्च भूयागुंसश्च दिशो रुद्रावितस्थिरे तेषागुं सहस्रयोजने वदन्वामि तन्वसे नमो रुद्रेभ्यो ये पृथिव्यां येऽन्तरिक्षे ये दिवि येषामन्दं वातु हर्षविषवस्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतिचीर्दशोतिचीर्दशोर्ध्वास्तेभ्यो नमस्ते नो मृणयन्तु तेयं विष्मो यश्च नो द्वेस्ति सम्भोजं वे दधामि त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् उर्वारुकमिव मन्थरान् मृत्योर्मुक्षीयमामृतात् यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशा मृत्यो मर्त्याय हन्तवे तान्यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो मा विशान्तकः तेनान्येनाप्यायस्वा नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुष्टुभियस्विषुस्वधन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वासौ मनसाय रुद्रम् नमोः हृद्देवमसुरम् दुवस्य अयम् मे हस्तो भगवान् अयम् मे भगवत्तरः अयम् मे विश्वभे शयो यगुम् शिवाभिमर्शनः ॐ शान्ति शान्ति शान्तिः ॐ अग्ना विष्णो सजोषसे मा वर्धन्तु वाङ्निरः ध्वम्नैर्वाजेभिरागतम् वाजस्य मे प्रसवस्य मे प्रयतिस्य मे प्रदितिश्च मे हेतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुपश्च मे प्राणश्च मे पानश्च मे व्यानश्च मे सुश्च मे चित्तम् च म आधेतम् च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च म ओजश्च मे सहश्च म आयुश्च मे जरा च म आत्मा च मे तनोश्च मे शर्म च मे वर्म च मेऽङ्गानि च मे स्थानि च मे परोगुंसि च मे शरीराणि च मे जैष्ठ्यम् च म आधिपत्यम् च मे मन्यश्च मे भावश्च मे मश्च मे मश्च मे जेमा च मे महिमा च मे महिमा च मे प्रतिमा च मे भस्मा च मे द्राघुया च मे वृद्धम् च मे वृद्धश्च मे सत्यम् च मे श्रद्धा च मे जगच्च मे धनम् च मे वश च मे त्विषिश्च मे क्रीडा च मे मोदश्च मे जातम् च मे जनिष्यमाणम् च मे सोक्तम् च मे सुकृतम् च मे वित्तम् च मे वेद्यम् च मे भूतम् च मे भविष्यच्च मे सुखम् च मे सुपथम् च मरुद्धम् च मरुद्धिश्च च मे क्लुप्तम् च मे क्लुप्तिश्च मे मतिश्च मे सुमतिश्च मे ष ಇಷ್ಟಂ ಚ ಮೇ ಮಯಶ್ಚ ಮೇ ಪ್ರಿಯಂ ಚ ಮೇನು ಕಾಮಶ್ಚ ಮೇ ಕಾಮಶ್ಚ ಮೇ ಸೌಮನಸಶ್ಚ ಮೇ ಭದ್ರಂ ಚ ಮೇ ಶ್ರೇಯಶ್ಚ ಮೇ ವಶ್ಯಶ್ಚ ಮೇ ಯಶಶ್ಚ ಮೇ ಭಗಶ್ಚ ಮೇ ತ್ರವಿಣಂ ಚ ಮೇ ಯಂತಾ ಚ ಮೇ ಧತ್ತಾ ಚ ಮೇ ಕ್ಷೇಮಶ್ಚ ಮೇ ಧೃತಿಶ್ಚ ಮೇ ವಿಶ್ವಂ ಚ ಮೇ ಮಹಶ್ಚ ಮೇ ಸಂವಿಚ್ಚ ಮೇ ಜ್ಞಾತ್ರಂ ಚ ಮೇ ಸೋಶ್ಚ ಮೇ ಪ್ರಸೋಶ್ಚ ಮೇ ಸ್ಥಿರಂ ಚ ಮೇ ಲಯಶ್ಚ ಮರುತಂ ಚ ಮೇ ಮೃತಂ ಚ ಮೇ ಯಕ್ಷ್ಮಂ ಚ ಮೇ ನಾಮಯಶ್ಚ ಮೇ ಜೀವಾತುಶ್ಚ ಮೇ ದೀರ್ಘಾಯುತ್ವಂ ಚ ಮೇ ನ ಮಿತ್ರಂ ಚ ಮೇ ಭಯಂ ಚ ಮೇ ಸುಖಂ ಚ ಮೇ ಶಯನಂ ಚ ಮೇ ಸೋಷಾ ಚ ಮೇ ಸುಜಿನಂ ಚ ಮೇ ಓಚ ಮೇ ಸೋನೃತಾ ಚ ಮೇ ಪಯಶ್ಚ ಮೇ ರಸಶ್ಚ ಮೇ ಘೃತಂ ಚ ಮೇ ಮನುಜ ಮೇ ಸಹ್ಯಶ್ಚ ಮೇ ಸಪೀತಿಶ್ಚ ಮೇ ಕೃಷಿಶ್ಚ ಮೇ ವೃಷ್ಟಿಶ್ಚ ಮೇ ಚೈತ್ರಂ ಚ ಮಾತ್ಮ ಚ ಮೇ ಧಯಶ್ಚ ಮೇ ರಾಯಶ್ಚ ಮೇ ಪುಷ್ಟಂ ಚ ಮೇ ಪುಷ್ಟಿಶ್ಚ ಮೇ ವಿಭುಜ ಮೇ ಪ್ರಭುಜ ಮೇ ಬಹುಜ ಮೇ ಭೂಯಶ್ಚ ಮೇ ಪೂರ್ಣಂ ಚ ಮೇ ಪೂರ್ಣತರಂ ಚ ಮೇ ಕ್ಷಿತಿಶ್ಚ ಮೇ ಕೋಯವಾಶ್ಚ ಮೇ ನಂ ಚ ಮೇ ಯಶ್ಚ ಮೇ ಮೇಹಯಶ್ಚ ಮೇ ಯವಾಶ್ಚ ಮೇ ಮಾಶಾಶ್ಚ ಮೇ ತ್ರಿಯಾಶ್ಚ ಮೇ ಮುಖ್ಯಾಶ್ಚ ಮೇ ಖಲ್ವಾಶ್ಚ ಮೇ ಗೋಧೂಮಾಶ್ಚ ಮೇ ಮಸುರಾಶ್ಚ ಮೇ ಪ್ರಿಯಂಗವಶ್ಚ ಮೇ ನವಶ್ಚ ಮೇ ಶ್ಯಾಮಕಾಶ್ಚ ಮೇ ನೈವಾರಾಶ್ಚ ಮೇ ಅಶ್ಮಾಚ ಮೇ ಮೃತ್ತಿಕಾಚ ಮೇ ಗಿರಯಶ್ಚ ಮೇ ಪರ್ವತಾಶ್ಚ ಮೇ ಸಿಕತಾಶ್ಚ ಮೇ ವನಸ್ಪತಯಶ್ಚ ಮೇ ಹಿರಣ್ಯಂ ಚ ಮೇ ಯಶ್ಚ ಮೇ ಶೇಷಂ ಚ ಮೇ ತ್ರಪುಶ್ಚ ಮೇ ಶ್ಯಾಮಂ ಚ ಮೇ ಲೋಹಂ ಚ ಮೇ ಅಗ್ನಿಶ್ಚ ಮ ಆಪಶ್ಚ ಮೇ ವೇರುಧಶ್ಚ ಮ ಔಷಧಯಶ್ಚ ಮೇ ಕೃಷ್ಣವಚ್ಯಂ ಚ ಮೇ ಕೃಷ್ಣವಚ್ಯಂ ಚ ಮೇ ಗ್ರಾಹ್ಯಾಶ್ಚ ಮೇ ಪಶವ ಆರಣ್ಯಾಶ್ಚ ಯಜ್ಞೇನ ಕಲ್ಪಂತಾ ವಿತ್ತಂ ಚ ಮೇ ವಿತ್ಯಶ್ಚ ಮೇ ಭೂತಂ ಚ ಮೇ ಭೂತಿಶ್ಚ ಮೇ ವಸು ಚ ಮೇ ವಸತಿಶ್ಚ ಕರ್ಮ ಚ ಮೇ ಶಕ್ತಿಶ್ಚ ಮೇ ಅರ್ಥಶ್ಚ ಮ ಏಮಶ್ಚ ಮ ಹಿತಿಶ್ಚ ಮೇ ಗತಿಶ್ಚ ಮೇ ಅಗ್ನಿಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಸೋಮಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಸವಿತಾ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಸರಸ್ವತೀ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಹೋಷಾ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಬೃಹಸ್ಪತಿಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಮಿತ್ರಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ವರುಣಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ತ್ವಷ್ಟಾ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಧಾತಾ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ವಿಷ್ಣುಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಶ್ವಿನೌ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಮರುತಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ವಿಶ್ವೇ ಚ ಮೇ ದೇವಾ ಇಂದ್ರಶ್ಚ ಮೇ ಪೃಥಿವೀ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಅಂತರಿಕ್ಷಂ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ದ್ಯೌಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ದಿಶಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಮೂರ್ಧಾ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಪ್ರಜಾಪತಿಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಅಗುಂಸುಶ್ಚ ಮೇ ರಶ್ಮಿಶ್ಚ ಮೇಧಾಭ್ಯಶ್ಚ ಮೇ ಧಿಪತಿಶ್ಚ ಮ ಉಪಾಗುಂಸುಶ್ಚ ಮೇ ಅಂತರ್ಯಾಮಶ್ಚ ಮ ಐಂದ್ರವಾಯವಶ್ಚ ಮೇ ಮೈತ್ರಾವರುಣಶ್ಚ ಮ ಆಶ್ವಿನಶ್ಚ ಮೇ ಪ್ರತಿಪ್ರಸ್ಥಾನಶ್ಚ ಮೇ ಶುಕ್ರಶ್ಚ ಮೇ ಮಂಥೇ ಚ ಮ ಆಗ್ರಯಣಶ್ಚ ಮೇ ವೈಶ್ವದೇವಶ್ಚ ಮೇ ಧ್ರುವಶ್ಚ ಮೇ वैश्वा नरश्च मरुत ग्रहाश्च मेति ग्राह्याश्च ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वतीयाश्च मे मानेन्द्रश्च आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पात्नीवतश्च मे हारयो जनश्च मे इद्मश्च मे बह्निश्च मे वेदिश्च मे धिष्णीयाश्च मे सृचश्च मे च वसाश्च मे ग्रावाणश्च मे स्वरवश्च म उपरवाश्च मे धिषवणे च मे द्रोणकलशश्च मे वायव्यानि च मे पूतभृश्च म आधवणीयश्च म आग्नेयेन्द्रम् च मे अवृद्धानम् च मे ग्रहाश्च मे सरश्च मे पुरोणाशाश्च मे पचताश्च मे वमृतश्च मे स्वगाकारश्च मे अग्निश्च मे घर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मे श्वमेधश्च मे पृथिवी च मे धृतिश्च मे धृतिश्च मे द्यौश्च मे शक्वरीरङ्गुलयोदिशश्च मे यज्ञेन कल्पन्ताम्रुच्च मे साम च मे सोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरु ऋतुश्च मे व्रतम् च मे होरात्रयोः दृष्ट्या बृहद्रथन्तरे च मे यज्ञेन कल्पेता गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवे च मे दैत्यवाक्ष मे दैत्यौहे च मे पञ्चाविश्च मे पञ्चावे च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाक्ष मे तुर्यौहे च मे पष्ठवाक्ष मे पष्टौहे च मुक्षा च मे वशा च मृषभश्च मे मेहञ्च मे हट्वाञ्च मे धेनुश्च आय यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पताम् पानो यज्ञेन कल्पताम् ध्यानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पतारुष्टोत्रम् यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंसतिश्च मे त्रयोविगुंसतिश्च मे पञ्चविगुंसतिश्च मे सप्तविगुंसतिश्च मे नवविगुंसतिश्च म एकत्रिगुंशच्च मे त्रयस्त्रिगुंशच्च मे चतस्रश्च मे षौ च मे द्वादश च मे षोडश च मे भिगुंसतिश्च मे चतुर्विगुंसतिश्च मे षाविगुंसतिश्च मे द्वात्रिगुंशच्च मे षट्त्रिगुंशच्च मे चत्वारिगुंशच्च मे चतुश्चत्वारिगुंशच्च मे ष्टाचत्वारिगुंशच्च मे पाजश्च प्रसवश्चाभिजश्च क्रतुश्च सुवश्च मूर्धा च यष्णियश्चान्त्यायनश्चान्त्यश्च भुवनश्च भुवनश्चाधिपतिश्च इडा देवहोर्मनुर्यज्ञनि बृहस्पतिरुत्था मदानि सगुंशिषत्विश्वे देवासौ तवाच पृथिवीमातर्मा माहि गुंसे मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुमदिष्यामि मधुमदीम् देवेभ्यो वाचमुद्या सगुं शुश्रूषेण्या मनुष्येभ्यस्तम् वा देवा अवन्तु शोभाय पितरो नुमदन्तु ॐ शान्ति 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 ॐ अत्रिणात्वा कृमे हन्मे कण्वेन जमदग्निना विश्वावसोर्ब्रह्मणा अथवा कृमीणागुं राजा अप्येषामस्तवत् हतः अथो माता थो पिता अथो ओ स्थूरा अथो ओ क्षुद्रा अथो कृष्णा अथो ओ श्वेता अथो आशातिका हता श्वेता विश्व सर्वे हता आहरावद्य श्रुतस्य हविषो यथा तत्सत्यम् यदमु यमस्य जम्भयो आददामि तथा हि तत् खण्फण्व्रसे ॐ शान्ति 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 ॐ हिरण्यवर्णाम् हरिणीम् सुवर्णरजतस्रजा चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो महाभव ता महाभव जातवेदो लक्ष्मीमरमगामिनी यस्याम् हिरण्यम् विन्देयम् गामश्वम् पुरुषानहम् अश्वपूर्वा प्रथमद्या हस्तिनाद प्रबोधिनी श्रेयम् देवी मुमक्वये श्रीमा देवी नृचता काम् सोऽस्मिताम् हिरण्य प्राकारा माद्राम् ज्वलन्तीम् तृप्ताम् तर्पयन्ते पद्मे स्थिताम् पद्मवर्णाम् तामिहोपक्वये श्रियम् चन्द्राम् प्रभासा यशसा ज्वलन्तीम् श्रियम् लोके देवजुष्टामुदाराम् ताम् पद्मिनीमीम् शरणमहम् प्रपद्ये अलक्ष्मीर्मे नश्यताम् त्वाम् वृणे आदित्यवर्णे तव सोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः तस्य फलानि तपसा नुदन्तु मायान्तरायाश्च बाह्य अलक्ष्मीः उपैतु माम् देवसकः केतिश्च मणिना सह प्रातुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिवृद्धिम् ददातु मे ह्युत्पिपासा फलान् ज्येष्ठामलक्ष्मीम् नाशयाम्यहम् अभूतिमसमृद्धिम् च सर्वामिर्नुद मे गृहात् गन्धद्वाराम् निराधर्षाम् नित्यपुष्टान्तरेषिणी ईश्वरीकुम् सर्वभूतानाम् तामिमोपक्वये श्रेयम् मनसः काममागोतिम् वाचः सत्यमशीमहे पशूनाम् रूपमन्नस्य मयि श्रेश्रयताम् यशः कर्दमेन प्रजाभूता मयि सम्भव कर्दमा श्रियम् वाचय मे कुले मातरम् पद्ममालिनी आपसृजन्तु स्निग्धानि चिक्लेतव समे गृहे निषदेवी मातरम् श्रियम् वाचय मे कुले आद्रां पुष्करिणीं
पुष्टिं
पिङ्गलां पद्ममालिनीं चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो महाबह आद्रां यत्करिणीं
यष्टिं
सुवर्णां हेममालिनीं सूर्यां हिरण्मयीं
लक्ष्मीं
जातवेदो महाबह महाबह जातवेदो
लक्ष्मी
मरवगामिनी यस्यां हिरण्यं प्रभूतं गावो दास्योष्ठा विन्देयं पुरुषानहम् यस्य चिप्रयतो भूत्वा जोजादाद्यवन्वहम् श्रेयः पञ्चदशच्चं च श्रीकामः सततं जवेत् पद्मानने पद्मऊरु पद्माक्षे पद्मसंभवे त्वं मां भजस्व पद्माक्षि येन सौख्यं लवाम्यहम् अश्वदायी गोदायी धनदायी महाधने धनं मे जुषतां देवि सर्वकामास्य देहि मे पुत्रपौत्रधनं धान्यशालिगवेदथम् प्रजानां भवसि माता आयुष्मन्तं करोतु मां धनमग्निर्धनं वायु धनं सूर्यो धनं वसुः धनमिन्द्रो बृहस्पतिर्वरुणं धनमश्नुते मैनते यसोमं पिबसोमं पिबतु वृत्रः सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः न क्रोधो न च मात्सर्यं न लोभो न शुभामतिः भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत् सदा वर्षन्तु ते हिमावरि देवो अग्रस्य विद्युतः रोहन्तु सर्वबीजान्यव ब्रह्मद्विषोजहि पद्मप्रिये पद्मिनि पद्महस्ते पद्मालये पद्मदलायताक्षे विश्वप्रिये विष्णुमनोनुकूले तत्पादपद्मं मयि सन्निधस्व या सा पद्मासरस्ता विपुलकणिदणि पद्मवस्त्रायताक्षे गम्भीरावत्तनाभिस्तनभरणमिता शुभ्रवस्त्रोत्तरीया लक्ष्मी दिव्यैर्गजेन्द्रे मणिगणखचितै स्नाभिता हे वकुम्भै नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता लक्ष्मी क्षीरसमुद्रराजतनया श्रीरङ्गधामेश्वरे दासी भूतसमस्तदेववनितां लोकैकदीपाङ्कुराम् श्रीमन्मन्दकटाक्षलब्धविभव ब्रह्मेन्द्रगङ्गाधराम् त्वां त्रैलोक्यकुटुम्बिनीं सरदिदां वन्दे मुकुन्द प्रिया सिद्धलक्ष्मी मोक्षलक्ष्मी जयलक्ष्मी सरस्वती श्रीलक्ष्मी वरलक्ष्मी च प्रसन्ना मम सर्वदा वराङ्गुजोपाशमभीतिमुद्रां करे वहन्तीं कमलासरस्ताम् मालार्ककोटिप्रतिभा त्रिनेत्रां भजेऽहमम्बां जगदीश्वरीं त्वां सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके देवि नारायणि नमोऽस्तु ते महालक्ष्मी च विद्महे विष्णुपत्नी च धीमहि तन्नो लक्ष्मी प्रचोदयात् ॐ शान्ति शान्ति। शान्तिः ॐ नीला देवी गुं शरणमहं प्रपद्ये गृणामि घृतवती सवितराधिमत्ये पयस्वीदन्तिराशानो अस्तु ध्रुवादिशां विष्णुपत्न्यघोरास्येशान सहसो यामनोता बृहस्पतिर्मातरिष्टोतवायुः सन्तु वानपात अभिनो गृणन्तु विष्टम्बो दिवो धरुणः प्रतिज्ञा अस्येशान जगतो विष्णुपत्ने स्वस्ति प्रजाभ्य परिपालयन्ता ज्ञानेन मार्गेण महेशाः नो ब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्ति।